उत्पत्य च प्रगृह्यो चैर्देवीं गगनमास्थितः तत्राभि सा निराधारां युयुतेदेन चण्डिकां नियुतं के तथा दैत्या चण्डिका च परस्परं चक्रदुप्रतमं सिद्धं मुनिविस्मयकारकं ततो नियुतं सुशिरं कृत्वाथेनाम्बिका सह उत्पाद्य प्रामयामास शिक्षेप तरणीतले सक्षिप्तो तरणीं प्राप्य मुष्टिमुद्यम्य वेगितः अव्यथावत दुष्टात्मा चण्डिका निधनेच्छया तमायान्तं ततो देवीं सर्वदैत्यजनेश्वरं जगत्यां पादयामास पित्वा चूलेन वक्षसीं सकदासि पवो दोर्व्यां देवी शूलाक्रविक्षतः सालयन् सकलान् पृथ्वीं सात्त्विकद्वीपान् सपर्वतां तत प्रसन्नमखिलं हते तस्मिन् दुरात्मनि जगत्स्वासत्यमतीवाभं निर्मलं चाभवन्नभः उत्पादमेका शोल्काये प्रकाशंस्ते समं ययुः सरिते मार्गवाहिन्यस्तदा संस्तत्र पादिते ततो देवगणा सर्वे हर्षनिर्परमानसा बभूवुर्निहते तस्मिन् गन्धर्वललितं जगुम् अवादयंस्तदैवान्ये नृदच्छाप्सरोगणां वपुण्यास्तथा वातां सुप्रभो बुद्धिवाकरः जज्वलुच्छाग्नयः शान्तां शान्तादिग्जनितस्वनाम् ॐ जय जय श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्त्रे देवी महात्म्ये दशमो अध्यायः सम्पूर्णम्।